We learn the seventh paragraph from Chaurashtakam. Manmanase.
Manmanase. Manmanase. Manmanase.
Tamasa.
Tamasa. Tamasa. Tamasa.
Rashi Gore.
Rashi Gore. Rashi Gore. Rashi Gore.
Karagrihe.
Karagrihe. Karagrihe. Karagrihe.
Dukha.
Dukha. Dukha. Dukha.
Maye.
Maye. Maye. Maye.
Nibadha.
Nibadha.
Labaswa,
Labaswa, Labaswa, Labaswa.
Hey Chaura,
Hey Chaura, Hey Chaura, Hey Chaura.
Hare Chiraya,
Hare Chiraya, Hare Chiraya, Hare Chiraya.
Swachaurya,
Swachaurya, Swachaurya, Swachaurya.
Doshochitam,
Doshochitam, Doshochitam, Doshochitam.
Eva Dandam,
Eva Dandam, Eva Dandam, Eva Dandam.
मनमानसे तामस राशि गोरे
मनमानसे तामस राशि गोरे मनमानसे तामस राशि गोरे मनमानसे तामस राशि गोरे
कारागृहे दुःखमये निबद्धा
कारागृहे दुःखमये निबद्धा कारागृहे दुःखमये निबद्धा कारागृहे दुःखमये निबद्धा
लभस्व हे चौरहरे चिराय
लभस्व हे चौरहरे चिराय लभस्व हे चौरहरे चिराय लभस्व हे चौरहरे चिराय
स्वचौर्य दोषोचितमेव दण्डम्
स्वचौर्य दोषोचितमेव दण्डम् स्वचौर्य दोषोचितमेव दण्डम् स्वचौर्य दोषोचितमेव दण्डम्
मन्मानसे तामस राशि गोरे
मन्मानसे तामस राशि गोरे मन्मानसे तामस राशि गोरे मन्मानसे तामस राशि गोरे
कारागृहे दुःखमये निबद्धा
कारागृहे दुःखमये निबद्धा
कारागृहे दुःखमये निबद्धा लभस्वहे दुःखमये निबद्धा लभस्वहे चौरहरे चिराय
लभस्वहे चौरहरे चिराय लभस्वहे चौरहरे चिराय
स्वहे चौरहरे चिराय स्वचौर्य दोषोचितमेव दण्डम्
स्वचौर्य दोषोचितमेव दण्डम् स्वचौर्य दोषोचितमेव दण्डम्
स्वचौर्य दोषोचितमेव दण्डम् I'll recite the whole paragraph. मन्मानसे तामस राशि गोरे कारागृहे दुःखमये निबद्धा लभस्व हे चौरहरे चिराय स्वचौर्य दोषोचितमेव दण्डम्
मन्मानसे तामस राशि गोरे कारागृहे दुःखमये निबद्धा लभस्व हे चौरहरे चिराय स्वचौर्य दोषोचितमेव दण्डम् मन्मानसे तामस राशि गोरे कारागृहे दुःखमये निबद्धा लभस्व हे चौरहरे चिराय स्वचौर्य दोषोचितमेव दण्डम्
ओ स्टीलर ऑफ माय एवरीथिंग Today I have imprisoned you.
Today I have imprisoned you
in the miserable prison house.
In the miserable prison house
of my heart.
Of my heart.
Which is very fearful.
Which is very fearful.
Due to the terrible darkness.
Terrible darkness.
Of my ignorance.
Of my ignorance.
And there.
and there
for a very long time,
for a very long time
you will remain receiving
appropriate punishment
for your crimes,
for your crimes
of thievery. See how the author is writing. You know, our heart is full of ignorance. It is so dark because of all. Anyway, that is the meaning of this. So, you want to sing from starting?